इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः सर्वोच्च न्यायालयेन कोलकाता चिकित्सालये एकस्याः महिला चिकित्सिकायाः दुष्कर्म हत्या प्रकरणे स्वास्थ्यकर्मिणां सुरक्षायै राष्ट्रिय कार्यबलस्य निर्माणं कृतमस्ति भारत मलेशियाभ्याम पारस्परिक सहयोग क्षेत्रेषु अनेकानि सन्धिपत्राणि हस्ताक्षरितानि संघ लोक सेवा आयोगः पार्श्व प्रवेशं प्रति पुनर्निर्दिष्टं विज्ञापनं निरसितवान् जम्मू कश्मीर प्रदेशे विधानसभा निर्वाचनस्य प्रथमस्य चरणस्य नामांकन प्रक्रिया अद्य समारब्धा अपि च भारतीय ऋतु विज्ञान विभागेन आगामी दिवसद्वयोः पूर्वोत्तर क्षेत्रेषु प्रचंड वृष्टेः संभावना व्यक्तीकृता अस्ति अथ वार्ताः विस्तरेण सर्वोच्च न्यायालयेन स्वास्थ्यकर्मिणां सुरक्षायै राष्ट्रिय कार्यबलस्य निर्माणं कृतमस्ति मुख्य न्यायाधीशः डीवाई चंद्रचूड़स्य नेतृत्वे पीठेन कोलकाता चिकित्सालये एकस्याः महिला चिकित्सिकायाः दुष्कर्म हत्या प्रकरणस्य श्रवणकाले कार्यबलाय सप्ताहत्रयानन्तरं स्वस्य अन्तरिम प्रतिवेदनं मासद्वयानन्तरं च अन्तिम प्रतिवेदनं समर्पयितुं निर्देशः प्रदत्तः अस्ति मुख्य न्यायाधीशः अवदत् यत् न्यायालयः महिलानां सुरक्षां सुनिश्चेतुं देश विदेशात् आगतानां वैद्यानां सुरक्षायै राष्ट्रिय कार्यबलस्य स्थापनां करोति एतत् कार्यबलं दिङ्निर्देशान् अनुशंसयिष्यति ये सम्पूर्णे देशे प्रवर्तयिष्यन्ते सम्पूर्णे देशे वैद्यानां स्वास्थ्यकर्मिणां च असुरक्षित कार्य परिस्थितेः विषये चिन्तां प्रकटयन् न्यायालयः अवदत् यत् विद्यमान विधिः वैद्यानां संस्थागत सुरक्षां पर्याप्ततया न व्यक्तीकरोति न्यायालयः अवदत् यत् तेन वर्गीकृत विषयेषु अवधानं प्राप्तुं कोलकाता नगरस्य आरजी कर चिकित्सालये चिकित्सिकायाः दुष्कर्मस्य हत्याया च विषये स्वप्रेरणया अवधानं स्वीकृतम् अस्ति न्यायालयः अवदत् यत् व्यावहारिक धरायां परिवर्तनार्थं देशः अन्यस्य दुष्कर्मस्य हत्यायाः च प्रतीक्षां कर्तुं न शक्नोति भारत मलेशियाभ्यां श्रम आजीविका क्षेत्रे आयुर्वेद पारंपरिक चिकित्सा विधि क्षेत्रयोः डिजिटल तंत्रज्ञान संस्कृति पर्यटन युवा क्रीडा सहयोग क्षेत्रेषु च अनेकानि सन्धिपत्राणि हस्ताक्षरितानि द्वावेव देशौ लोक प्रशासनस्य शासन संशोधनस्य परस्पर सहयोगस्य क्षेत्रे चापि सन्धिपत्रेषु हस्ताक्षराणि कृतवन्तौ नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना मलेशिया देशस्य समकक्षीयेन दातो सेरी अनवर बिन इब्राहिम इत्यनेन सह प्रतिनिधिस्तरीय वार्तायाः अनन्तरं एतेषु सन्धिपत्रेषु हस्ताक्षराणि कृतानि संयुक्त पत्रकार सम्मेलनं संबोधयता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् भारत मलेशिया देशौ समग्र सामरिक सहभागित्वं वर्धयितुं निर्णयं कृतवन्तौ श्रीमोदीवर्यः अवदत् यत् द्वयोः देशयोः मध्ये रणनीतिक सहभागित्वं दशवर्षाणि पूरयिष्यति विगतवर्षद्वयोः अस्यां सहभागितायां नूतनः वेगः समागतः अस्ति सः अवदत् यत् प्रतिनिधिस्तरीयायां वार्तायां उभयपक्षौ परस्पर सहयोगस्य सर्वेषु क्षेत्रेषु विस्तृत चर्चां कृतवन्तौ भारत मलेशिया देशयोः मध्ये आर्थिक सहयोगस्य प्रचुर संभावनाः सन्ति श्रीमोदी इति कथितवान् फिनटेक सेमीकंडक्टर्स रक्षा उद्योग कृत्रिम बुद्धि क्वांटम तंत्रज्ञानम इत्यादिषु नूतन क्षेत्रेषु सहभागं वर्धयितुम् आवश्यकता अस्ति इति अपि प्रधानमन्त्री अवोचत् सः अवदत् यत् भारतस्य यूपीआई इत्येतत् मलेशिया देशस्य पेनेट इत्यनेन सह योजयितुम् उभयपक्षौ अपि कार्यं करिष्यतः अस्मिन् अवसरे मलेशिया देशस्य प्रधानमन्त्री दातो सेरी अनवर बिन इब्राहिम अवदत् यत् बहूनि क्षेत्राणि सन्ति यत्र उभयपक्षाभ्यां समधिकम् अन्वेषणं कर्तव्यमस्ति सः अवदत् यत् भारतं समृद्धेतिहास संस्कृति सभ्यता समन्वितं महत् राष्ट्रमस्ति संघलोकसेवा आयोगः पार्श्वप्रवेशं प्रति पुनर्निर्दिष्टं विज्ञापनं निरसितवान् सूचना प्रसारण मंत्री अश्विनी वैष्णव अकथयत यत आरक्षण से सिद्धांत सह पार्श्व प्रवेश संरेखन से निर्णय प्रधानमंत्री नरेन्द्र मोदी वर्य सामजिक न्याय प्रति प्रतिबद्धता दर्शयति इति। पूर्व सर्वकारेण यूपीएससी इत्यायोगः प्राशासनिक सेवायां पार्श्व प्रवेश संबद्धं विज्ञापनं निरसितुं आदिष्टः आसीत्। संस्कृत वार्तायाः संस्करणं इदं इदानीं आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जम्मू कश्मीर प्रदेशे भारतस्य निर्वाचन आयोगेन प्रख्यापितायाः अधिसूचनायाः अनन्तरम् अद्य विधानसभा निर्वाचनस्य प्रथमस्य चरणस्य नामांकन प्रक्रिया समारब्धा। पुलवामा, अनंतनाग, शोपियां, कुलगाम, रामबन, किश्तवाड़, डोडा इत्येतेषु मण्डलेषु चतुर्विंशतिषु विधानसभा निर्वाचनेषु प्रथमचरणे मतदानं सितंबर मासस्य अष्टादश दिनांके भविष्यति। अधिसूचनायाः अनुगुणं अभ्यर्थिनः एतेभ्यः निर्वाचनासनेभ्यः अगस्त मासस्य सप्तविंशति दिनांक पर्यन्तं नामांकनं कर्तुं शक्नुवन्ति। उपभोक्तृ कार्यस्य खाद्यस्य सार्वजनिक वितरण विभागस्य च निदेशकेन प्रह्लाद जोशी इत्यनेन अद्य नवदिल्ल्यां षष्टि प्रति मूल्य आपणान् जन पोषण केन्द्रेषु परिवर्तयितुं प्रायोगिक कार्यक्रमस्य आरम्भः कृतः आसीत्। जनसम्मेलनं सम्बोधयन् श्रीजोशीवर्यः अवदत् यत् जनपोषण केन्द्राणि उचितमूल्य आपण विक्रेतृभ्यः स्वस्य आयं वर्धयितुं साहाय्यं करिष्यन्ति इति। मन्त्री अन्यान् पञ्च कार्यक्रमान् अपि उद्घाटितवान्। मेरा राशन ऐप, गुणवत्ता प्रबंधन प्रणाली, गुणवत्ता हस्त पुस्तिका, भारतीय खाद्य निगमस्य अनुबंध पुस्तिका, प्रयोगशालानां प्रत्यायनम् इत्येत्यादीन समेत्य अन्य कार्यक्रमाणाम् अपि शुभारम्भं सः विहितवान्। परिवर्तितानि जनपोषण केन्द्राणि मिलेट इति महान्नानि, द्विदलधान्यानि, खाद्यतैलम् इत्यादयः पोषण सामग्र्यः प्रतिस्पर्धात्मक मूल्येषु प्रदास्यन्ति। पूर्वम् उचित मूल्य आपणेषु केवलं गोधूमाः तण्डुलाश्च उपलभ्यन्ते स्म। एतानि केन्द्राणि उचितमूल्य आपण विक्रेतृभ्यः अतिरिक्त राजस्वं प्रदास्यन्ति। जनपोषण केन्द्रस्य उपक्रमः इंडिया एट 2047 इति सभी को अनाज पोषित समाज इति संकल्पेन सह सम्बद्ध अस्ति, येन प्रत्येकं नागरिकः पर्याप्तं पौष्टिकं च भोजनं प्राप्नुयात् इति सुनिश्चितं भवेत्। प्रधानमन्त्रिणा नरेन्द्र मोदिना पूर्व प्रधानमन्त्रिणे राजीव गांधिने श्रद्धांजलिः समर्पितः। अवधेयं यत् अद्य राजीव गांधी वर्यस्य जन्मजयन्ती अस्ति। लोकसभायां विपक्षस्य नेता, कांग्रेस दलस्य च सांसदः राहुल गांधी पूर्व प्रधानमन्त्रिणे राजीव गांधिने पुष्पांजलिं समर्पयितुं नवदिल्लीस्थं वीरभूमिम् अगच्छत्। कोलकाता नगरे एकस्याः चिकित्सिकायाः कथित दुष्कर्म हत्या प्रकरणम् अधिकृत्य टीएमसी सर्वकारस्य उपरि भाजपा दलेन अद्य प्रहारः कृतः। नवदिल्ल्यां प्रसार माध्यमान् सम्बोधयन् भाजपा दलस्य प्रवक्ता डॉ सुधांशु त्रिवेदी आरोपान् प्रख्यापितवान् यत् अस्मिन् प्रकरणे साक्ष्यान् भिन्न विधिभिः विनाशयितुं प्रयत्नाः विहिताः सन्ति। सः अवदत् यत् घटनायाः विषये टीएससी सर्वकारं विरुध्य सर्वोच्च न्यायालयेन उत्थापिताः प्रश्नाः गंभीराः सन्ति। भारतीय ऋतुविज्ञान विभागेन आगामी दिवसद्वयोः पूर्वोत्तर क्षेत्रेषु प्रचंड वृष्टेः संभावना व्यक्तीकृता अस्ति। ऋतुविज्ञान विभागस्य अनुसारं देशस्य मध्यभागेषु पश्चिम विक्षोभस्य कारणात् मध्यमतः प्रबल पर्यन्तं वृष्टिपातं समभवत्। आरके जीनामणि इत्येषः आकाशवाणीं संसूचितवान् यत् उत्तरप्रदेशस्य उपरि सैडोनिक आर्कुलेशन इत्यस्य कारणात् विभागेन पंजाब, हरियाणा, उत्तराखण्ड, हिमाचल प्रदेशेषु श्वः यावत् प्रचण्डवृष्टेः संचेतना प्रदत्ता अस्ति इति वार्ताः।